अनसूयां मरे देवीं पुरस्ता त्रिपदम्बुजां कटीतटल सद्दत्तात्रेय सिद्धेश्वराञ्जितां पाणिभ्यां पल्लवाभ्यां भर्तृरत्रेर्महामुनेः पादसेवां प्रकुर्वन्तीं सादरां पतिदेवताम्। कुर्यात् सुवासिनी पूजां पतिपुत्र समन्विताम् इमं मन्त्रं जपित्वादौ दत्तात्रेयमनुं जपेत् प्रसन्नो जायते शीघ्रं दत्तात्रेयो दिगम्बरः। प्रसीदत्यनसूया च लक्ष्मीस्तिष्ठति तद्गृहे।